रजस्तम इति गुणाः प्रकृति संभवाः निबध्नन्ति महाबाहो देहे देहि नमव्ययम् निबध्नन्ति महाबाहो देहे देहि नमव्ययम् तत्र सत्त्वं निर्मलत्वा प्रकाशगमनामयम् सुखसंगेन बध्नाति ज्ञानसंगेन जानः सुखसंगेन बध्नाति ज्ञानसंगेन जानः रजो रागात्मकं विद्धि कृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिः तन्निबध्नाति भारत प्रमादालस्य निद्राभिः तन्निबध्नाति भारत सत्त्वं सुखे संजयति रजः कर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत रजस्तमश्च अभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलं रजसस्तु फलं दुःखम् अज्ञानं तमसः फलं रजसस्तु फलं दुःखम् अज्ञानं तमसः फलं सत्त्वात् संजायते ज्ञानम् रजसो लोभ एव च प्रमादमोहौ तमसो भवतो अज्ञानमेव च प्रमादमोहौ तमसो भवतो अज्ञानमेव च पूर्वं गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानतीत्यत्री देहि देहसमुद्भवा जन्म मृत्यु जरा दुःखैः विमुक्तो मृतमश्नुते जन्म मृत्यु जरा दुःखैः विमुक्तो मृतमश्नुते।